इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्दझाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी गतदिने जनजातीय प्रतिनिधिभिः सह मिलितवान्। ह्यः नवदिल्ल्याम् आयोजितस्य जनजातीय सुरक्षा कल्याण मञ्चस्य विषये सामाजिक संचार माध्यमेन श्रीमोदी उक्तवान् यत् आदिवासी समुदायं प्रति तस्य समर्पणं यथार्थतया प्रशंसनीयम्। केन्द्रीयः गृह सहकारिता मन्त्री अमित शाहः पुनरेकदा अवैध प्रवासिनाम् अभिज्ञानार्थं निर्वासनार्थं सीमा सुरक्षां च सुदृढीकर्तुं सर्वकारस्य प्रतिबद्धतां दृढतया प्रतिपादितवान्। गतवासरे गुजराते गांधीनगरे चत्वारिंशदधिक त्रिशत कोटि रूप्यकाणां विकास परियोजनानां उद्घाटनस्य शिलान्यासस्य च अनन्तरं जनसभां सम्बोधयन् श्री शाहः पश्चिम बंगाल सर्वकारस्य अपि प्रशंसाम् अकरोत्, यतः शासनेन एक सप्ताहाभ्यन्तरे सीमा सुरक्षाबलाय षट्शत हेक्टर परिमिता भूमिः प्रदत्ता। वीर सावरकर महोदयस्य जन्मवार्षिक्याः अवसरे गृहमन्त्री तस्य योगदानाय त्यागाय च तस्मै श्रद्धाञ्जलिं प्रदत्तवान्। गुजरात राज्यस्य त्रिदिवसीय यात्रायां श्रीशाहः अनेकेषां सार्वजनिक सौकर्याणाम् उद्घाटनम् अकरोत्। अत्रान्तरे सः अहमदाबाद नगरे आगामिनि ओलम्पिक क्रीडानां कॉमनवेल्थ क्रीडानां विश्वरक्षक क्रीडानां अग्निक्रीडानां च सज्जतायाः समीक्षाम् अकरोत्। राष्ट्रपति पदासीना द्रौपदी मुर्मुः आरक्षकबलाय बोधितवती यत् आरक्षकाः अधिकं नागरिकाभिमुखाः भवेयुः, अपि च समाजस्य दुर्बलवर्गाणां विशेषतः महिलानां निर्धनानां बालकानां च विषये संवेदनशीलतां धारयेयुः। राष्ट्रपतिः गतवासरे गंगटोक नगरे आयोजिते अलंकरण संचलने सिक्किमारक्षकदलाय प्रतिष्ठितं राष्ट्रपति ध्वज सम्मानं प्रदाय एवं उक्तवती। तया राज्ये विधिव्यवस्थायाः पालने सहैव आपत्प्रबन्धने सिक्किमारक्षकदलस्य भूमिकायाः भूरिशः प्रशंसा कृता। उपराष्ट्रपतिः सीपी राधाकृष्णन् अद्य आरभ्य अस्य मासस्य एकत्रिंशत् दिनांकपर्यन्तं कर्णाटक गोवा केरल राज्यानां त्रिदिवसीय यात्रायां भविष्यति। अद्य सः कर्णाटके बेंगलुरु नगरे आर्ट ऑफ लिविंग फाउंडेशन इत्येतस्य संस्थानस्य पञ्चचत्वारिंशद् वर्षपूर्त्यवसरे आयोजिते वैश्विक समारोहे सहभागं करिष्यति। तदनन्तरं सः कर्णाटकस्य दावणगेरे स्थितस्य विश्वविद्यालय बीडीटी अभियांत्रिकी महाविद्यालयस्य प्लैटिनम जुबली इति महारजत जयन्त्युत्सवे अपि सहभागं करिष्यति। कर्णाटकस्य मुख्यमन्त्री सिद्धारमैया इत्यसौ गतवासरे लोकभवने राज्यपालस्य सचिवाय औपचारिकरूपेण स्वकीयं त्यागपत्रं समर्पितवान्। वार्ताहरान् सम्बोधयन् सः प्रमाणितवान् यत् त्यागपत्रं सचिवाय औपचारिकरूपेण प्रदत्तमिति। अत्रावसरे सः राज्यपालं नूतन मुख्यमन्त्रिणः पदभारग्रहणाय आमन्त्रयितुं साग्रहं निवेदितवान्, यतोहि विधानसभायां षट्त्रिंशदधिकैकशताधिक विधायकानां समर्थनेन कांग्रेसदलस्य पूर्ण बहुमतं वर्तते। तेन सूचितं यत् कांग्रेस उच्चाधिकारिभिः तस्मै राज्यसभायाः सदस्यता प्रस्ताविता आसीत्, परञ्च सः राष्ट्रिय राजनीतौ स्वकीयाम् अरुचिं प्रकटयन् उक्तवान् यत् सम्प्रत्यसौ राज्यस्य जनानां कृते एव निरन्तरं कार्यं करिष्यति। भारतीयर्तुविभागेन अनुमितं यत् देशस्य उत्तर पश्चिमीय दिग्विभागस्य कतिपय क्षेत्रेषु अतितापघटनायां अपचितिः भविष्यति। अन्ते क्रीडावार्तासु आईपीएल क्रिकेट स्पर्धा मालिकायाम् अद्य उपान्त्यचक्रीये द्वन्द्वे गुजरात टाइटन्स दलं राजस्थान रॉयल्स दलेन समं स्पर्धिष्यते। स्पर्धा सायं सार्ध सप्तवादने आरप्स्यते।